ओम नमो भगवते वासुदेवाय। अथ त्र्यशीतितमोऽध्यायः। श्रीशुक उवाच, तथानुगृह्य भगवान् गोपीनां सगुरुर्गतिः। युधिष्ठिरमथापृच्छत् सर्वांश्च सुहृदो व्ययम्। त एवं लोकनाथेन परिपृष्टाः सुसत्कृताः। प्रत्यूचुर्हृष्टमनसस्तत्पादे क्षाहतां हसः। कुतो शिवं त्वच्चरणाम्बुजासवम्, महन्मनस्तो मुख निःसृतं क्वचित्। पिबन्ति ये कर्णपुटैरलं प्रभो, देहं भृतां देहकृतस्मृतिच्छिदम्। हित्वात्मधाम विधुतात्मकृतत्र्यवस्थ, मानन्दसंप्लवमखण्डमकुण्ठबोधम्। कालोपसृष्टनिगमावन आत्तयोग, मायाकृतिं परमहंसगतिं नतास्म। ऋषिरुवाच, इत्युत्तमश्लोकशिखामणिं जने स्वभिष्टुवत्स्वन्धककौरवस्त्रियः। समेत्य गोविन्दकथामिथो गृणन् स्त्रिलोकगीता शृणु वर्णयामि ते। द्रौपद्युवाच, हे वैदर्भ्यच्युतो भद्रे, हे जाम्बवति कौसले, हे सत्यभामे कालिन्दी सैव्ये रोहिणि लक्ष्मणे, हे कृष्णपत्न्ये तन्नो ब्रूतवो भगवान् स्वयम्। उपयेमे यथा लोकमनुकुर्वन् स्वमायया। रुक्मिणी उवाच, चैद्यायमार्पयितुमुद्यतकार्मुकेषु, राजस्वजेय भटशेखरिताङ्घ्रिरेणुः। निन्ये मृगेन्द्र इव भागमजावियूथात्, तच्छ्रीनिकेतचरणोऽस्तु ममार्चनाय। सत्यभामोवाच, यो मे सनाभिवद तप्तहृदाततेन, लिप्ताभिशापमपमार्ष्टुमुपाजहार। जित्वर्क्षराजमथरत्नमदात्सतेन, भीतः पिता दिशत मां प्रभवेऽपि दत्ताम्। जाम्बवत्युवाच, प्राज्ञाय देहकृदमुं निजनाथ देवं, सीतापतिं तृणवहान्यमुनाभ्ययुध्यत्। ज्ञात्वा परीक्षित उपाहरदर्हणं माम्, पादौ प्रगृह्य मणिनाहममुष्य दासी। कालिन्द्युवाच, तपश्चरन्तीमाज्ञाय स्वपादस्पर्शनाशया, सख्योपेत्याग्रहीत् पाणिं योऽहं तद्गृहमार्जनी। मित्रविन्दोवाच, यो मां स्वयंवर उपेत्य विजित्य भूपान्, निन्ये स्वयूथगमिवात्मबलिं द्विपारिः। भ्रातृंश्च मेऽपकुरुतः स्वपुरं श्रियौ कस्, तस्यास्तु मेऽनुभवमङ्घ्र्यवने जनत्वम्। सत्योवाच, सप्तो क्षणोति बलवीर्यसुतीक्ष्णशृङ्गान्, पित्रा कृतान् क्षितिपवीर्य परीक्षणाय। तान् वीरदुर्मदहनस्तरसा निगृह्य, क्रीडन् बबन्तः यथा शिशवो जतोकान्। य इत्थं वीर्यशुल्कां मां दासीभिश्चतुरङ्गिणीं, पथि निर्जित्य राजन्यान्, निन्ये तद्दास्यमस्तु मे। भद्रोवाच, पिता मे मातुलेयाय स्वयमाहूय दत्तवान्, कृष्णे कृष्णाय तच्चित्तामक्षौहिण्या सखीजनैः। अस्य मे पादसंस्पर्शो भवेज्जन्मनि जन्मनि, कर्मभिर्भ्राम्यमाणाया येन तच्छ्रेय आत्मनः। लक्ष्मणो वाच, ममापि राज्ञच्युतजन्मकर्म श्रुत्वा मुहुर्नारदगीतमासः, चित्तं मुकुन्दे किल पद्महस्तया, वृतः सुसमृश्य विहाय लोकपान्। ज्ञात्वा मम मतं साध्वी पिता दुहित्रिवत्सलः, बृहत्सेन इति ख्यातस्तत्रोपायमचीकरत्। यथा स्वयंवरे राज्ञी मत्स्यः पार्थेप्सया कृतः, अयं तु बहिराच्छन्नो दृश्यते स जले परम्। श्रुत्वैतत् सर्वतो भूपा आययुर्मत्पितुः पुरम्, सर्वास्त्रशस्त्रतत्त्वज्ञा सोपाध्याया सहस्रशः। पित्रा सम्पूजिता सर्वे यथा वीर्यं यथा वयः, आददु सशरं चापं वेद्धुं पर्षदि मद्धियः। आदाय व्यसृजन् केचित् सज्जं कर्तुमनीश्वराः, आकोटिज्यां समुत्कृष्य पेतुरेके मुनाहताः। सज्जं कृत्वा परे वीरामागधां बष्टचेदिपाः, भीमो दुर्योधन कर्णो नाविंदन सदवस्थितिम मत्स्याभासं जले वीक्ष्य ज्ञात्वा च तदवस्थितिम पार्थो यत्तो सृजत बाणम नाच्छिनत् पस्पृशे परम राजन्येषु निवृत्तेषु भग्नमानेषु मानेषु भगवान् धनुरादाय सज्जं कृत्वाथ लीलया तस्मिन् संधाय विशिखं मत्स्यं वीक्ष्य सकृत् जले छित्वेषुणापातयत्तं सूर्ये चाभिजिति स्थिते दिवि दुन्दुभयो नेदुर्जय शब्दयुता भुवि देवाश्च कुसुमासारान् मुमुचुर्हर्ष विह्वलाः तद्रङ्गमाविषमहं कलनूपुराभ्यां पद्भ्यां प्रग्रह्य कनकोज्ज्वलरत्नमालां नूत्ने निवीय परिधाय च कौशिकाग्र्ये सव्रीडहासवदना कबरी धृतस्रक् उन्नीय वक्त्रमुरुकुन्तलकुन्दलत्विड् गण्डस्थलं शिशिरहासकटाक्षमोक्षैः राज्ञो निरीक्ष्य परितः शनकैर्मुरारे रंसेनुरक्तहृदया निदधे स्वमालाम् तावन्मृदङ्गपटहाः शङ्खभैर्यानकादयः निनेदुर्नटनर्तक्यो नृतुर्गायका जगुः एवं वृते भगवति महेशे नृपयूथपाः न से हिरे याज्ञसेनी स्पर्धन्तो हृच्छयातुराः मां तावद्रथमारोप्य हयरत्नचतुष्टयम् शाङ्गमुद्यम्य सन्नद्धस्तस्था वाजौ चतुर्भुजः दारुकश्चोदयामास काञ्चनोपस्करं रथं मिषतां भूभुजां राज्ञी मृगाणां मृगराडिव तेन्व सज्जन्त राजन्या निषेद्धुं पथि केचन संयत्ता उद्धृते श्वासा ग्रामसिंहा यथा हरिं तेषाङ्गच्युतबाणौघैः कृत्तबाह्वङ्घ्रिकन्धराः निपेतुः प्रधने केचिदेके सन्त्यज्य दुद्रुवुः ततः पुरीं यदुपतिरत्यलङ्कृताम् रविच्छदध्वजपटचित्रतोरणाम् कुशस्थलीम् दिवि भुवि चापि संस्तुताम् समाविशत्तरणिरिव स्वकेतनम् पिता मे पूजयामास सुहृत्सम्बन्धिबान्धवान् महारवासो लङ्कारैः शय्यासनपरिच्छदैः दासीभिः सर्वसम्पद्भिर्भटे भरतवाजिभिः आयुधानि महार्हाणि ददौ पूर्णस्य भक्तितः आत्मा रामस्य तस्येमा वयं वै गृहदासिकाः सर्वसङ्गनिवृत्त्याद्धा तपसा च बभूविम महिष्य ऊचुः भौमं निहत्य सगणं युधिते न रुद्धा ज्ञात्वाथ नः क्षितिजये जितराजकन्याः निर्मुच्य संसृतिविमोक्षमनुस्मरन्तीः पादाम्बुजं परिणिनाय आप्तकामः न वयं साध्विसाम्राज्यं स्वराज्यं भौज्यमप्युत वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरे पदं कामयामः एतस्य श्रीमत्पादरजः श्रियः कुचकुङ्कुमगन्धाढ्यं मूर्ध्ना वोढुं गदाभृतः व्रजस्त्रियो यद्वाञ्छन्ति पुलिन्द्यस्त्रणविरुधः गावश्चारयतो गोपाः पादस्पर्शं महात्मनः ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे त्र्यशीतितमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।